नमांसि आरभामहे। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। सम्प्रति अष्टाध्याय्याः अवगमनम् इति विषयम् पठन्तः स्मः। कथम् अष्टाध्यायी अवगन्तव्या इति विषये, अष्टाध्यायी इत्यनेन कथम् अष्टाध्यायीस्थसूत्राणि अवगन्तव्यानि इति विषये चिन्तनं प्रचलति। तत्र विभक्तिम् अवलम्ब्य सूत्राणाम् अवगमनं कथम् इति विषये गतपाठपर्यन्तं चर्चितम्। विशेषेण विभक्तिमवलम्ब्यसूत्राणाम् अवगमनम् इति यः विषयः उक्तः सः विधिसूत्रेषु अन्वेति, एस्पेशलि इट् इस् अप्लिकेबल् इन् विधिसूत्रास्, सो नाट् इन् संज्ञासूत्रास्। ततः परं सूत्रप्रकाराः उक्ताः, टैप्स् आफ् सूत्रास् आर् आल्सो टोल्ड् इन् दि प्रीवियस् क्लास्, and anuvritti, anuvritti vishaye uktam. So adya vayam agriman amshan janimaha, visheshanam tadantasya sarvadeshaha antyadeshaha tit kit mit ityadinam vishaye janimaha. So we are studying the remaining points, we are covering remaining points in this class. प्रथमं विशेषणं तदन्तस्य इति विषयः। अत्र कानिचन सूत्राणि वर्तन्ते, प्रत्ययः, परश्च, धातोः, एः, अच् इति चत्वारि सूत्राणि सन्ति। एतानि सूत्राणि तृतीयाध्याये वर्तन्ते। तृतीयाध्यायः प्रत्ययविधायकः, प्रत्ययस् आर् सेड् इन् तृतीयाध्याय, प्रत्ययस् विच् गो आफ्टर् धातु, सच् प्रत्ययस् आर् मेन्शन् इन् तृतीयाध्याय। सो अत्र अधिकारसूत्रत्रयमस्ति, प्रत्ययः इति अधिकारसूत्रं, परश्च इत्यपि अधिकारसूत्रं, धातोः इत्यपि अधिकारसूत्रम्। एवञ्च एतानि सर्वाणि पदानि एः अच् इत्यस्मिन् इत्येतत् सूत्रं प्रति अनुवर्तन्ते। प्रत्ययः इति पदस्य अनुवृत्तिर्भवति, परश्च इत्यस्य अनुवृत्तिः, धातोः इत्यस्य अनुवृत्तिः अस्ति। एवञ्च सम्पूर्णं सूत्रं भवति एः अच् प्रत्ययः परश्च धातोः, एतावन्ति पदानि अस्मिन् सूत्रे सन्ति। कथम् एतेषाम् अन्वयः इति चेत्, एः धातोः परः अच् प्रत्ययः भवति, सो दिस् इस् द कम्प्लीट् सूत्र, एः धातोः परः अच् प्रत्ययः भवति। अत्र एः इति पञ्चमी विभक्तिः, ए इस् पञ्चमी विभक्ति आफ् इ इकार, पञ्चमी विभक्ति आफ् इकार इस् एः, लैक् हरिः बिकम्स् हरेः, सो इकारान्त वर्ड् हरिः, हरि बिकम्स् हरेः, लैक् दट् इ बिकम्स् एः। एवञ्च एः नाम इकारात् इत्यर्थः, कः अर्थः इति चिन्तयामः पुनः। एः धातोः इत्यपि पञ्चमी भक्तिः, परः इति अनुवृत्तमस्ति, अच् प्रत् च इत्यपि अस्ति, अत्र न लिखितम्, ಅಚ್ ಪ್ರತ್ಯಯ ಅಚ ಇತಿ ಸೂತ್ರ ಅಸ್ತಿ ಪ್ರತ್ಯಯ ಅನುವೃತ್ತಂ ಅಚ್ ಇಟ್ಸೆಲ್ಫ್ ಇಸ್ ಪ್ರತ್ಯಯ ದೇರ್ಫೋರ್ ಅಚ್ ಪ್ರತ್ಯಯ ಪ್ರತ್ಯಯ ಭವತಿ ಎಂಚ ಏಹ ಧಾತೋಃ ಪರಃ ಅಚ್ ಪ್ರತ್ಯಯ ಭವತಿ ಇತಿ ಸೂತ್ರ ಅತ್ರ ಏಹ ಇತಿ ವಿಶೇಷಣ ಏಹ ಇಸ್ ಅನ್ ಅಡ್ಜೆಕ್ಟಿವ್ ಟು ಧಾತು ಏಹ ಇತಿ ಧಾತೋಃ ವಿಶೇಷಣ ಏಹ ಧಾತೋಃ ಉಪ ಅತಃ ಏಹ ಇತ್ಯಪಿ ಪಂಚಮ್ಯಾಂ ಅಸ್ತಿ ಧಾತೋಃ ಇತ್ಯಪಿ ಪಂಚಮ್ಯಾಂ ಅಸ್ತಿ ಇದಾನಿಂ ಪ್ರಶ್ನಃ ಅತ್ರ ಕಃ ಕಥಂ ಅರ್ಥಃ ವಕ್ತವ್ಯಃ ಏಹ ಧಾತೋಃ ಪಂಚಮ್ಯಾಮೇವ ಅಸ್ತಿ ಪದದ್ವಯಂ ಏಹ ಇತಿ ವಿಶೇಷಣಂ ಧಾತೋಃ ಇತಿ ವಿಶೇಷ್ಯಂ ಏವಂಚ ಅನಯೋಃ ಪದಯೋಃ ಕಃ ಅರ್ಥಃ ವಾಟ್ ಇಸ್ ದ ಮೀನಿಂಗ್ ಆಫ್ ದೀಸ್ ಟೂ ವರ್ಡ್ಸ್ ಬಿಕಾಸ್ ಬೋತ್ ಆರ್ ಇನ್ ಪಂಚಮೇ ವಿಭಕ್ತಿ ಅಂಡ್ ಏಹ ಈಸ್ ಅನ್ ಅಡ್ಜೆಕ್ಟಿವ್ ಟು ಧಾತೋಃ ಸೊ ಹೌ ಟು ಡಿಫೈನ್ ದ ಮೀನಿಂಗ್ ಆಫ್ ದೀಸ್ ಟೂ ವರ್ಡ್ಸ್ ತದಾ ತತ್ರ ಕಶ್ಚನ ನಿಯಮಃ ಉಕ್ತಃ ಏಹ ಧಾತೋಃ ಪರಃ ಅಚ್ ಪ್ರತ್ಯಯಃ ಭವತಿ ಯದಿ ಯತ್ ವಿಶೇಷಣಂ ಅತ ಏಹ ಇಸ್ ಅನ್ ಅಡ್ಜೆಕ್ಟಿವ್ ವಿಶೇಷಣಂ ತದಂತಂ ಸ್ವಂ ಚ ಗೃಹಾತಿ ಇದು ನಿಯಮಃ ವಿಶೇಷಣಂ ತದಂತಂ ಸ್ವಂ ಚ ಗೃಹಾತಿ an adjective represents ending with that letter tadanta and swam only that letter swam nam only that so an adjective represents both tadantam swam cha grinhati iti kastana niyamah all these are paribhashas paribhasha sutraneva sutram atra na likhitam ಎವಂಚ ವಿಶೇಷಣಂ ತದಂತಸ್ಯ ಇತಿ ನಿಯಮಃ ತದಂತಸ್ಯ ತದಂತಸ್ಯ ಸ್ವಸ್ಯ ಚ ಬೋತ್ ಅತಃ ಏಹ ಧಾತೋಃ ಪರಃ ಅಚ್ ಪ್ರತ್ಯಯಃ ಭವತಿ ಇತ್ಯುಕ್ತೆ ಅತಃ ಏಹ ಇತಿ ವಿಶೇಷಣಂ ಧಾತೋಃ ಇತಿ ವಿಶೇಷ್ಯಂ ವಿಶೇಷಣಂ ತದಂತಂ ಸ್ವಂ ಚ ಗೃಹಾತಿ ಎವಂಚ ಏಹ ಇತ್ಯಸ್ಯ ಇಕಾರಾಂತಾತ್ ಇಕಾರ ರೂಪಾತ್ ಚ ಧಾತೋಃ ಇತ್ಯರ್ಥಃ ಭವತಿ ಏಹ ಮೀನ್ಸ್ ಇಕಾರಾಂತ ಎಂಡಿಂಗ್ ವಿತ್ ಇಕಾರ ಆರ್ ಅ ಧಾತು ವಿಚ್ ಹ್ಯಾಸ್ ಓನ್ಲಿ ಇಕಾರ ಸೊ ಆಫ್ಟರ್ ಸಚ್ ಧಾತು ಅಚ್ ಪ್ರತ್ಯಯ ಟು ಬಿ ಆಡೆಡ್ ದಿಸ್ ಇಸ್ ದ ಮೀನಿಂಗ್ ಸೊ ವಿಶೇಷಣ ರೆಪ್ರೆಸೆಂಟ್ಸ್ ತದಂತ ಅಂಡ್ ಸ್ವಂ ಇನ್ ದಿಸ್ ಎಕ್ಸಾಂಪಲ್ ehe means ikara anta ending with ikara and som means having only ikara ikara anta ikara rupa cha dhatoho parah ach pratyaya bhavati ityartha visheshanam tadantam som cha grnhati iti avastha udaharanartham for example chi iti kastana dhaturasti ji iti kastana dhaturasti ತತ್ರ ಜಿ ಇತಿ ಧಾತುಃ ಇಕಾರಾಂತಃ ಅಸ್ತಿ ಇಸ್ ಎಂಡಿಂಗ್ ವಿತ್ ಇಕಾರ ಅಂಡ್ ಜಿ ಧಾತುಃ ಅಪಿ ಇಕಾರಾಂತಃ ಅಸ್ತಿ ಇಸ್ ಆಲ್ಸೋ ಎಂಡಿಂಗ್ ವಿತ್ ಇಕಾರ ಸೊ ದೀಸ್ ಆರ್ ಇಕಾರಾಂತ ಧಾತುಸ್ ಎಂಡಿಂಗ್ ವಿತ್ ಇಕಾರ ಇ ಇತಿ ಕಶ್ಚನ ಧಾತುರಸ್ತಿ ದೇರ್ ಇಸ್ ಅ ಧಾತು ಇ ದಿಸ್ ಈಸ್ ಇಕಾರ ರೂಪ ಇಟ್ ಹ್ಯಾಸ್ ಓನ್ಲಿ ಇ ಇಸ್ ನಾಟ್ ಇಕಾರಾಂತ ಇಕಾರ ರೂಪ ಧಾತು ಸೊ ತದಂತ ಅಂಡ್ ಸ್ವಂ ಇಕಾರಾಂತ ಧಾತು ವಿಚ್ ಎಂಡ್ಸ್ ವಿತ್ ಇಕಾರ ಆರ್ ಅ ಧಾತು ವಿಚ್ ಹ್ಯಾಸ್ ಓನ್ಲಿ ಇಕಾರ ಸೊ ಆಫ್ಟರ್ ಸಚ್ ಧಾತು ಅಚ್ ಪ್ರತ್ಯಯ ಟು ಬಿ ಆಡೆಡ್ ಇತ್ಯರ್ಥ ಏವಂ ಸೊ ಅಚ್ ಪ್ರತ್ಯಯ ಭವತಿ ಏವಂಚ ವಿಶೇಷಣಂ ತದಂತಂ ಸ್ವಂ ಚ ಗೃಹಾತಿ ಇತಿ ವ್ಯವಸ್ಥಾ ವಿಶೇಷಣಂ ತದಂತಂ ಸ್ವಂ ಚ ಗೃಹಾತಿ ಅಸ್ಮಿನ್ ಉದಾಹರಣೆ ಏಹ ಇತಿ ಧಾತೋಃ ವಿಶೇಷಣಂ ಅತಃ ಏಹ ಇತ್ಯನೇನ ತದಂತಸ್ಯ ಸ್ವಸ್ಯ ಚ ಗ್ರಹಣಂ ಅತಃ ಇಕಾರಾಂತಾತ್ ಇಕಾರ ರೂಪಾತ್ ಚ ಧಾತೋಃ ಇತಿ ಅರ್ಥಃ ಲಭ್ಯತೆ मम ध्वनिः न श्रूयते वा? सन्देशः कश्चन अस्ति न श्रूयते इति. अस्तु. अन्यानि कानिचन उदाहरणानि, सम मोर एग्जाम्पल्स् ऐ एम गिविंग. सी, महा पदस्य अनुस्वारः हलि, दिस् इज़ अनदर सूत्र. अत्र इन् दिस् सूत्र महा इति विशेषणम्. सी, महा इज़ द षष्ठी विभक्ति आफ् मु, मु बिकम्स् महा इन् सिक्स्थ केस्. महा मीन्स् मकार, मु लेटर्, सिक्स्थ केस्. महा इति विशेषणम् एण्ड् पदस्य इस् विशेष्य एण्ड् अनुस्वारः इस् इन् प्रथमा विभक्ति, हलि इस् इन् सप्तमी विभक्ति. नौ बिकास् दिस् इस् विशेषण, सो एज् ऐ एक्स्प्लेन् इन् द प्रीवियस् सूत्र, सो इन् द सेम् वे वि हाव् टु एक्स्प्लेन् दिस् सूत्र. अतः महा इत्यस्य कः अर्थः? तदन्तं स्वं च गृह्णाति. महा इति विशेषणं, देर्फोर् तदन्तं स्वं च गृह्णाति, इट् रेप्रसेण्ट्स् बोत्. So, what is the meaning of this sutra? Maha ittanena makarantat, ending with makara, a pada which ends with makara, or a pada which has only makara, in the place of that, so anuswara replaces that pada when it is followed by hal. Iti sutrasya artha. Makarantasya makara rupasya cha padasya. अनुस्वारः भवति हलिपरे इति सूत्रार्थः. यदि विशेषणं नास्ति, इफ् देर् इस् नो अजेक्टिव्, तदा कथम् अर्थः क्रियते स्म? हौ वि डिफैन् दिस् सूत्र? पदस्य स्थाने अनुस्वारः भवति हलिपरे. पदस्य षष्ठी भवति, पदस्य स्थाने अनुस्वारः भवति हलिपरे इति सूत्रार्थः क्रियते स्म. अत्र किमस्ति? विशेषणमपि अस्ति. There is an adjective, there is an extra word, adjective is there. So, yada visheshanam asti, tada tadantam, visheshanam sarvada tadantam swamcha grinhati. Ataha, yadi visheshana bochakam padam asti, tarihi evam rupena eva arthaha kartavyaha. Makara, asmin udaharane, makarantasya, makara rupasya cha padasya, anuswaraha bhavati halipare. अत्र उदाहरणम्, एन एग्जाम्पल् आफ् दि सूत्र. रामं वदति. रामम् इति मकारान्तं पदम्, एण्डिङ्ग् वित् मकार. रामं वदति मकारान्तस्य पदस्य, मकारान्तस्य पदस्य अनुस्वारः भवति हलिपरे. सो व इस् हल्, सो मकारान्तपद. रामम् इस् मकारान्तपद, इट् इस् फालोड् बै वकार, दर् इस् हल्. अतः मकारान्तस्य पदस्य अनुस्वारः भवति, रामं वदति इति रूपं सिद्ध्यति. सो मकाररूप, इफ् अ वर्ड् हेस् ओन्लि मकार, सो यु वोण्ट् गेट् सच् एक्साम्पल्स्, बट् प्रीवियस्लि वि गाट् एन् एक्साम्पल्, दे वास् धातु विच् हेस् ओन्लि इकार, बट् मकारन् द वर्ड् हेविङ्ग् ओन्लि मकार इस् डिफिकल्ट्, बट् इफ् इस् देर् देन् आल्सो दिस् रूल् इस् अप्लिकेबल्. एवञ्च मकारान्तस्य मकाररूपस्य च पदस्य अनुस्वारः भवति हलिपरे इति अत्र सूत्रस्य अर्थः. सम मोर एग्जाम्पल्स्. नः पदस्य छवि रुः इति किञ्चित् सूत्रम्. अत्र नः इस् इन् षष्ठी, पदस्य इस् आल्सो इन् षष्ठी. नः इस् विशेषण, छवि इस् इन् सप्तमी विभक्ति, एण्ड् रुः इस् प्रथम. कथं तर्हि सूत्रार्थः वक्तव्यः? सो कोऽपि वक्तुं शक्नोति, एनिवन् केन् ट्रै. सो सूत्रस्य अर्थः, सो देर् आर् षष्ठी, सेवेन्त् एण्ड् प्रथमा विभक्ति, इट् इस् वेरि ईजि. सो वेन् देर् इस् विशेषण, देन् what is the meaning of this sutra, how to understand the meaning when there is an visheshana. So kopi vadati va yaha hastam ya ya Girija Murali ji vaktum shaknoti va. के बालसुब्रह्मण्यं जी ओके म्यूट ओके गिरिजा जी या अनम्यूट कृतम सो अनम्यूटेड गिरिजा जी वक्तुं शक्नोति. ओके न श्रूयते या या बालसुब्रह्मण्यं जी आई अनम्यूटेड यू सो कैन यू प्लीज यस न श्रूयते. ओके अत्र इन दिस या सम आंसर्ड इन दिस टेक्स्ट दे टाइप्ड दिस नकारांतस्य या रविशंकर जी टाइप्ड नकारांतस्य नकार रूपस्य च पदस्य स्थाने छवि परे रुह भवति. सम्यक् सी सो सूत्रस्य कः अर्थः नकारांतस्य पदस्य और नकार रूपस्य च पदस्य स्थाने छवि परे रुह भवति इति सूत्रस्य अर्थः. सम्यक् अन्यत् सूत्रम् इकः अंगस्य गुणः सार्वधातुक आर्धधातुकयोः इति सूत्रम्. इकः अंगस्य गुणः सार्वधातुक आर्धधातुकयोः सार्वधातुक आर्धधातुकयोः इस इज सेवेंथ केस एंड इज द्विवचन. देयर आर टू वर्ड्स सार्वधातुक एंड आर्धधातुक एंड इज द्विवचन. So don't worry what is the regarding the meaning of sarvadhatuka and arthadhatuka. We'll know that later on. So but here ikaha is visheshana and angasya is visheshya. So how to define the sutra? Yeah. Kopi hastam uddharati va? Yes. Yeah. Karthikeyan ji. कार्तिकेयन्जी वक्तुं शक्नोति वा सूत्रस्य अर्थम्?
इतः अन्तस्य
वक्तुं शक्नोति वा? प्रयत्नं करोतु. इकः इक् अन्तस्य सम्यक् अग्रे
इक् अन्तस्य
रूपस्य इक रूपस्य
इक रूपस्य गुण सार्वधातुक अंगस्य सार्वधातुक आर्थधातुकयोः भवति परे गुणः भवति.
सम्यक् उत्तमम् अत्र इगन्तस्य इग् रूपस्य च अङ्गस्य गुणः भवति सार्वधातुक आर्धधातुकयोः परयोः सम्यगुक्तम् इति सूत्रस्य अर्थः. अन्यत् सूत्रम् अचः अङ्गस्य वृद्धिः ञिति अचः अङ्गस्य वृद्धिः ञिति. अत्र इन् दिस् एक्साम्पल् अचः इस् विशेषण अण्ड् अङ्गस्य विशेष्य. सो कः वक्तुं शक्नोति? यस्, शिवराम कुलकर्णी महोदय वक्तुं शक्नोति वा?
इति निति प्रत्यये परे अचः अङ्गस्य वृद्धिः भवति.
विशेषणम् अस्ति, अतः कथं वक्तव्यम्? अचः अङ्गस्य
अचः यस्य अन्ते अस्ति, अचः
तादृशस्य
अङ्गस्य अचः यस्य अङ्गस्य अन्ते अस्ति तस्य वृद्धिः भवति इति निति प्रत्यये परे.
सम्यक्. अजन्तस्य अङ्गस्य अच् अन्ते अस्ति इत्यस्य अजन्तस्य अङ्गस्य आर् अच् रूपम् इवन् इफ् दर् इस् ओन्ली अच् इन् दट् अङ्ग देन् आल्सो इट् इस् अप्लिकेबल्. अजन्तस्य अङ्गस्य अज् रूपस्य च अङ्गस्य वृद्धिः भवति ञिति णिति परे. सो ञित् अण्ड् णित् विच् इस् वेर् ञ इस् इत् अथवा यत्र ण इत्. सो ञिति णिति परे अजन्तस्य अद्रूपस्य च अङ्गस्य वृद्धिः भवति इति सूत्रस्य अर्थः. अन्यत् सूत्रं समानमस्ति किन्तु विधि अन्यत् विधीयते. अचः अङ्गस्य दीर्घः च्वौ इति सूत्रम्. अचः अङ्गस्य अचः इति विशेषण अचः अङ्गस्य दीर्घः च्वौ. अन्यः कमलराजन्जी वक्तुं शक्नोति वा?
नमस्कारः. नमस्कारः. अजन्तस्य अज् रूपस्य च अङ्गस्य दीर्घः भवति चौ परे.
सम्यक्. एवञ्च अजन्तस्य अज् रूपस्य च अङ्गस्य दीर्घः भवति चौ परे इति सूत्रस्य अर्थः. उत्तमम्. ऋतः अङ्गस्य दीर्घः च्वौ इति अन्यत् सूत्रम्. अत्र ऋतः इस् इन् षष्ठीविभक्ति. ऋतः इस् षष्ठीविभक्ति आफ् ऋत्. षष्ठीविभक्ति आफ् ऋत्. ऋत् इत्यस्य ऋतः इति रूपम्. ऋत् इत्यस्य कः अर्थः इति प्रश्नः स्यात्, तद्विषयम् अग्रे वदिष्यामि. वाट् इस् द मीनिङ्ग् आफ् ऋत् दट् विल् एक्स्प्लेन् लेटर् आन्. बट् हियर् इस् द षष्ठीविभक्ति आफ् ऋत् शब्द. ऋतः अङ्गस्य दीर्घः च्वौ. जानकीराजन महोदय वक्तुं शक्नोति वा?
नमस्ते महोदय. ऋत् अन्तस्य तद्रूपस्य अङ्गस्य छुटि प्रत्यये परे दीर्घः भवति.
सम्यक्. अतः ऋदन्तस्य अङ्गस्य हृद् रूपस्य च अङ्गस्य दीर्घः भवति चौ परे. सम्यक्. एवं यत्र विशेषणम् अस्ति, विशेषणं पदं वर्तते चेत् तदा तदन्तस्य स्वस्य च ग्रहणम् इति व्यवस्था. यदि किञ्चित् विशेषणपदमस्ति, विशेषणबोधकं पदमस्ति चेत् तदन्तस्य स्वस्य च ग्रहणम् इति व्यवस्था. एतादृश बहुषु सूत्रेषु एतादृशानि विशेषणबोधकानि पदानि दृश्यन्ते. एतद्विषये प्रश्नः वर्तते वा? अत्र उदाहरणं न उक्तं, वस्तुतः सूत्रमेव उदाहरणम्. एक्चुलि सूत्र इट्सेल्फ् इस् उदाहरण. अत्र पुनः सूत्रस्य उदाहरणं सो वि विल् नो लेटर् आन्. But here sutra itself is example. So we are applying the, because paribhashas are applied on sutra. परिभाषाः सूत्राणाम् अवगमने सहकुर्वन्ति, सूत्रार्थस्य अवगमने. अतः परिभाषाणाम् उदाहरणं सूत्रमेव भवति. अतः मया सूत्रमेव प्रदर्श्यते, सूत्रस्य उदाहरणं पुनः न प्रदर्श्यते. सूत्रस्य उदाहरणं यदा वयं सन्धि इत्यादीनाम् अध्ययनं कुर्मः तदा सूत्रस्य उदाहरणं लभ्यते. अप्लिकेशन् आफ् सूत्र विल् नो लेटर् दान्. इदानीं सूत्रमेव उदाहरणं, यतः परिभाषाणां कृते सूत्रम् उदाहरणं भवति. अतः केवलं मया सूत्राणि प्रदर्शितानि, आरम्भे एव सूत्रस्य उदाहरणं दर्शितम्. इदानीं तदन्तविधेः अपवादः, देर् इस् एन् एक्सेप्शन् टु दिस् रूल्, तत् वक्तुमिच्छामि. विशेषणं सप्तम्याम् अस्ति, इफ् विशेषण इस् इन् सेवेन्थ् केस्. पुनश्च वर्णबोधकं चेत् if it is denoting a letter, just a letter, if the visheshana is denoting a letter, and if it is in seventh case, visheshanam saptamyam vartate, punaha varna bodhakam cha asti, tadrisham visheshanam chet tarihi tadantasya grahanam nasti kintu tadadeha grahanam. So purvam tadantasya grahanam asti ending with that letter. So we took ending with that letter, but atra tadadeh, beginning with that letter, we have to take beginning with that letter. So yadi saptamyantam varna bodhakam padam visheshanam, drashtum shaknuvanti. Saptamyantam, seventh case, saptamyantam varna bodhakam, you should denote only letter, varna bodhakam padam visheshanam tarihi tat तदन्तं न बोधयति किन्तु तदादेः बोधकं भवति. बिगिनिङ्ग् विद् देट् लेटर्, वी हाव् टु टेक् बिगिनिङ्ग् सो पद विच् बिगिन्स् वित् देट्, तदादेः बोधकं भवति. उदाहरणार्थं फार् एक्साम्पल्, अतः अङ्गस्य दीर्घः यञि सार्वधातुके इति किञ्चित् सूत्रम्. अतः अङ्गस्य दीर्घः यञि सार्वधातुके. अत्र अतः इस् विशेषण, अङ्गस्य इस् विशेष्य, इट् ईस् इन् षष्ठी विभक्ति. सो हियर् वि हाव् टु अप्लै द प्रीवियस् रूल्. एवञ्च कः अर्थः भवति, अदन्तस्य अद् रूपस्य च अङ्गस्य इति अनयोः पदयोः अर्थः, बिकास् इट् इस् इन् षष्ठी विभक्ति, इस् नाट् इन् सेवेन्त् सप्तमी विभक्ति. अदन्तस्य अद् रूपस्य च अङ्गस्य दीर्घः भवति. किन्तु अत्र अगेन् यञि इस् विशेषण, सार्वधातुके इस् विशेष्य. सार्वधातुक इस् अ नेम् गिवन् टु अ ग्रूप् आफ् प्रत्ययस्, सो देट् वि विल् नो लेटर्, बट् इट् इस् अ नेम् गिवन् टु अ ग्रूप् आफ् प्रत्ययस्, केषाञ्चित् प्रत्ययानां संज्ञा सार्वधातुकम् इति. यञि इति विशेषणं, यञ् इत्यस्य कः अर्थः, यञ् इस् प्रत्याहार, यकारादारभ्य ञकारपर्यन्तं ये वर्णाः य वर लण् ञम गणनम् इत्येवं ञकारपर्यन्तं ये वर्णाः सन्ति ते यञ् इति पदेन गृह्यन्ते. एवञ्च यञ् इति वर्णबोधकं, सो इस् डिनोटिङ्ग् लेटर्स् एण्ड् इट् ईस् इन् सेवेन्त् केस्. यञ् इति वर्णबोधकमस्ति, सप्तम्याम् अस्ति, अतः यञि इत्यस्य इत्यनेन तदन्तस्य ग्रहणं न भवति किन्तु तदादेः ग्रहणम्. एवञ्च कः अर्थः वक्तव्यः, यञादौ सार्वधातुके इति अर्थः वक्तव्यः. यञादौ सार्वधातुके, सो बिगिनिङ्ग् वित् यञ्, द सार्वधातुक विच् बिगिन्स् वित् यञ्, इस् नाट् एण्डिङ्ग् वित् यञ्. किमर्थम् अयमर्थः कृतः, यञि इति सप्तम्यन्तमस्ति, वर्णबोधकञ्च अस्ति. टु कण्डिशन्स् आर् देर्, सप्तम्यन्तं वर्णबोधकं. सप्तम्यन्तं वर्णबोधकं पदं यदि विशेषणं तर्हि तदन्तं न बोधयति किन्तु तदादिं, तदादेः अत्र ग्रहणं भवति. अतः अङ्गस्य it is also Varna Bodhaka actually. Ataha is Varna Bodhaka. But it is not in Saptami Bhakti. So not both the conditions are not met. Ataha iti Varna Bodhakam asti, because Asta means only Akara. But it is not in Saptami Bhakti. Ataha Adantasya Angasya iti Arthakataha. But in any Saptamyantattvam api asti, Varna Bodhakattvam api asti. Ataha Tadadehe Grahanam Bhavati. Iti, it is the exception to Tadanta Vithi. So, itu api, we'll show some more examples. Yeah. Ataha angasya dirghaha yani supicha is another rule. Atra, ataha iti visheshanam, angasya iti visheshanam, ataha puravadevartaha, adantasya angasya dirghaha, adantasya adrupasya angasya dirghaha, yani supi. So, yani, again, same, yani is in Saptami Bhakti and it is Varna Bodhaka, ataha, yanyado supi iti arthaha vaktavya. Adantasya angasya, adantasya adrupasya, both entail. Adantasya angasya dirghaha bhavati, yanyado supita iti sutrasya arthaha. Vantaha ji pratyaye. Kopi vaktum shaknotiva, asya sutrasya artham. Yes. Janakiji Vaktum Shaknoti.
Va antaha vikalpena iti bhavativa, va antasya bhavativa.
Va antaha bhavati. Atra vibhagaha nasti. Va antaha bhavati.
Va antaha bhavati. Yada pratyay yakara pratyayam parah pare bhavati.
Yakaradi pratyaya.
Yakaradi pratyaya.
Samyak. So, vantaha. Vanta means vakaranta. Vantaha bhavati. Vantaha adesha. Vantaha adesha bhavati. Kasya sthane chatra nasti. Vantaha adesha bhavati. Yi pratyaye. Yi iti visheshanam. Pratyaya is visheshya. And yi is Varna Bodhaka, because E means Yakara, so it is denoting a letter, and it is in Saptami Bhakti, therefore, Yakarado Pratyaye, iti artha kartavya. Vantaha Adesha Bhavati, Yakarado Pratyaye Pare, iti sutrasya artha. Anyat udaharanam, Adaha Jagthihi Ti Kiti. Adaha jagdhihi ti kiti. Adaha shakti bhakti. Jagdhihi is prathama. Ti is saptami. And kiti is also in saptami bhakti. Atra ti iti visheshanam. Ti means takara. So it is denoting letter. And it is in saptami bhakti. Ti kiti. Kiti, kit, kiti. Saptami bhakti. Evancha. Atra ti iti visheshanam, kiti iti visheshyam, idam saptamyantam asti, varna bodhakam cha asti. Evam cha kasam sutrartha vaktavyah, kopi anyah prayatnam karoti va? Hastam uddharatu, anyah kopi vaktum icchati chet. Ravi Shankaraji, vaktum shaknoti va?
Adaha sthane takaradau kiti pare jagdihi bhavati.
Sammek. Adaha sthane jagdihi bhavati takaradau kiti pare. Takaradau kiti pare. Sammek. Iti sutrasya artha. Adaha sthane jagdihi bhavati takaradau kiti pare. Evam yadi saptamyantam varna bodhakam padam visheshanam tarihi tadantasya grahanam na kintu tadadehe grahanam. Saptamyantam varna bodhakam padam, so two conditions, saptamyantatvam and varna bodhakatva, tada tadadehe grahanam, tadantasya grahanam na bhavati iti tadanta videhe ayam apavada. Evancha atra niyama dvayam uktam etavata. Edi visheshanam, edi पदं विशेषणं वर्तते तर्हि तदन्तं स्वं च गृह्णाति इत्युक्तं. किन्तु विशेषणभूतं पदं सप्तम्यां वर्तते वर्णबोधकञ्च अस्ति चेत् तदन्तं न गृह्णाति किन्तु तदादिं गृह्णाति इति तस्य अपवादः उक्तः. एतद्विषये कोऽपि प्रश्नः वर्तते वा? If there is a question, you can type or you can add, if you have question, if you get question later on, you can add the question in the group also. इदानीं सो अन्यः विचारः, this is about अन्त्यादेश, अन्त्यस्य आदेशः. हा, तत्र कोऽपि प्रश्नः वर्तते. Then it would be always be para, satyam. So, satyam, always para, because it is in saptami bhakti, ataha sarvada tasmin pare itteva arthaha vaktavyaha bhavati. Tasmin pare itteva arthaha vaktavyaha, because always it should be in saptami bhakti. Then only we can, this exception is applicable, ataha samyak. Again the can you please give example for yanyadi? See, yanyadi supi means, because I am not giving examples is because, so if I say enyadi, enyado supi, because supratyas are not taught yet. So we will study those pratyas later on. So therefore I didn't mention, I'm not giving examples. For if you want example, see, there is a pratyaya called dhyam in supratyaya. See, bhakara is yany. Bhakara is yany, and enyadi supi means dhyam. Bhyam begins with an any letter. Bhakara is an any letter, and the pratyaya bhyam begins with yany. Ataha yanyadi supasti. Atra likhami, see. This is the pratyaya bhyam. Bhyam iti pratyaya. Ayam kastana is a supratyaya, and atra bhakaraha यः वर्तते सः यञ् अस्ति. सो यञादौ प्रत्यये, सो बिगिनिङ्ग् वित् एन् यञ् लेटर्, सो भ्यामिति प्रत्ययः यञादिप्रत्ययः अस्ति. अतः यञादौ प्रत्यये परे तत् पूर्वोक्तं कार्यं भवति. इदम् अत्र उदाहरणं यञादि इत्यस्य. सप्तमी शब्दवाक्यं हौ टु ऐडेण्टिफै विच् वन् इस् Yeah, when there are two saptamis, saptami shabdas in vakya, how to identify which one is visheshanam or which one is visheshyam? So, uttamam. So, samanyatah, generally, you can say if yasya anuvritti rasti, tat visheshyam bhavati, generally, which is coming from, by anuvritti. Generally, it will be vishesya, and which is in sutra, the word which is in sutra, generally, it will be visheshana. उदाहरणार्थं सो अङ्गस्य इस् एन् अधिकार, तस्य अनुवृत्तिरस्ति. पदस्य इस् अधिकारसूत्र, सो पदस्य इत्यस्य अनुवृत्तिरस्ति. अतः तत् विशेष्यम् इति सामान्यतः वक्तुं शक्नुमः. किन्तु एव वर्णबोधकं पदं सर्वदा विशेषणमेव भवति. यदि अन्यत् पदमस्ति, पद अङ्ग इति किमपि अस्ति, तदा वर्णबोधकं पदं सर्वदा विशेषणमेव भवति. या वाट् डस् वर्णबोध मीन्स्? Actually, bodha means to know, buddha avagamane, to know is the meaning of the word buddha and bodha. Varna bodhaka means with denotes a letter, that is varna bodhaka. So which denotes a letter, that is varna bodhaka. For example, if I say yan, so yan is a varna bodhaka, because it is denoting some letters. यञ्ज प्रत्याहार इज डोनोटिंग सम लेटर्स सो यञ्ज वर्णबोधक सो येन वर्णाः ज्ञायन्ते तत् वर्णबोधकं भवति अस्तु इदानीम् अन्त्यादेश विषये किञ्चित् वदामि महापदस्य अनुस्वारः हलि इति किञ्चित् सूत्रम् सो पूर्वम् अत्र वि स्टडीड् दिस् सूत्र प्रीवियस्लि मीन्स् ऐ शोड् एक्साम्पल् दिस् सूत्र सो मह इस् विशेषण एण्ड् पदस्य इस् विशेष्य अतः मकारान्तस्य पदस्य आर् मकाररूपस्य पदस्य अनुस्वारः भवति हलिपरे इति सूत्रस्य अर्थः एण्ड् द एक्साम्पल् वास् गिवन् रामं वदति अत्र रामम् इस् मकारान्तपद मकारान्तस्य पद इन् द प्लेस् आफ् मकारान्तपद अनुस्वार गोस् मीन्स् अनुस्वार रिप्लेसस् द मकारान्तपद वेन् इट् इस् फालोड् बै हल् इदानीं प्रश्नः सूत्रे किं वर्तते मकारान्तस्य पदस्य स्थाने इन् द प्लेस् आफ् मकारान्त पद इन् द प्लेस् आफ् अ वर्ड् विच् एण्ड्स् वित् मकार मकारान्तस्य पदस्य स्थाने यदा मकारान्तस्य पदस्य स्थाने इति उच्यते तदा सम्पूर्णस्य मकारान्तस्य पदस्य स्थाने किमर्थं न भवति मकारान्तस्य पदस्य इत्युक्तम् सो सम्पू मकारान्तं पदं वर्ड् विच् एण्ड्स् वित् मकार अत्र किम् अस्ति रामम् इस् मकारान्त बिकास् इस् एण्डिङ्ग् वित् मकार अतः मकारान्तस्य पदस्य इत्युक्ते सम्पूर्णस्य स्थाने अपि भवितुमर्हति इट् केन् आल्सो बि इन् द प्लेस् आफ् होल् वर्ड् रामम् द अनुस्वार केन् रिप्लेस् द होल् वर्ड् बिकास् अकार्डिङ्ग् टु सूत्र इट्स् ओन्ली जस्ट् इस् सेयिङ्ग् मकारान्तपद इन् द प्लेस् आफ् मकारान्तपद सो वै इस् नाट् रिप्लेसिङ्ग् द होल् वर्ड् बिकास् इन् द प्रीवियस् See, actually, it becomes like this. Ramam vadati. Only the last letter is replaced with anuswara. We are not replacing the whole word. But why it is not so? Kimartham sampurnasya sthane atra na kriyate. Antyasya sthane eva. Kimartham adesha kriyate atra. Iti prashnaha bhavati. Atra paninehe kachana niyamah asti. This is what I wrote with the word antyadesha. सर्वदा अपि यस्य स्थाने कार्यं विहितं यस्य स्थाने मीन्स् षष्ठ्यन्तस्य स्थाने यस्य स्थाने कार्यं विहितं तस्य अन्त्यस्य स्थाने एव आदेशः भवति यस्य स्थाने आदेशः विहितः तस्य अन्त्यस्य स्थाने एव मीन्स् षष्ठ्यन्तस्य अन्त्यस्य स्थाने एव आदेशः भवति आदेश आल्वेस् गोस् always replaces the last letter of shashtyanta. In this example, atra makarantasya padasya. So makaranta pada is shashtyanta. So anuswara replaces the last letter of makaranta pada. See, ramam, m is the last letter of this makaranta pada. So anuswara replaces the last letter of makaranta pada makarantasya padasya antyasya sthane eva sarvada adeshah bhavati atha antyadeshah iti likhitam evancha shashtya nirdishtah yah tasya antyasya sthane eva adeshah bhavati shashtya nirdishtah yah in this example षष्ठ्या निर्दिष्ट कः हू इस् डिफैन्ड् वित् षष्ठी विभक्ति विच् हेस् द वर्ड् विच् हेस् षष्ठी विभक्ति महापदस्य सो महा विशेषण सो मकारान्तपद हेस् षष्ठी विभक्ति षष्ठ्या निर्दिष्टः यः मकारान्तपदम् अत्र षष्ठ्या निर्दिष्टं तस्य अन्त्यस्य द लास्ट् लेटर् आफ् देट् In this example, M is the last letter. Tasya antyasya sthane eva adesho bhavati. आदेश रिप्लेसेस द लास्ट लेटर ऑफ षष्ठ्यंत तो अत्र मकारस्य स्थाने एव अनुस्वारः भवति संपूर्णस्य स्थाने अनुस्वारः न भवति अत्र इदमेव कारणम् अन्त्यादेशः सर्वदापि अन्त्यादेशः एव कर्तव्यः इति पाणिनेः नियमः अन्यत् किञ्चित् उदाहरणम् अदर एग्जांपल अतः अंगस्य दीर्घः यनि सार्वधातुके अत्र अतः अंगस्य इत्यस्य दीर्घः यनि सार्वधातुके वी सॉ दिस रूल प्रीवियसली यनि इज अ सप्तम्यंत एंड वर्णबोधक देयरफॉर यनादौ सार्वधातुके इज द मीनिंग अतः अंगस्य दीर्घः यनादौ सार्वधातुके अत इज द विशेषण सो अदन्तस्य अंगस्य स्थाने दीर्घः भवति यनादौ सार्वधातुके इति सूत्रस्य अर्थः अदन्तस्य अंगस्य अंग विच एंड्स विथ अत् अकार अदन्तस्य अंगस्य स्थाने दीर्घः भवति दीर्घ रिप्लेसेस अदन्त अंग when it is followed by yanyadi sarvadhatuka adantasya angasya sthane in the place of adanta anga means kaha artha vaktavyah adantasya angasya yah antimah varnah tasya sthane the last letter of adanta anga will be replaced with dirgha when it is followed by yanyadi sarvadhatuka because antyasya sthane eva adesha adesha replaces the last letter सो उदाहरणार्थम् अहम् उदाहरणं ददामि अत्र फार् एक्साम्पल् भव प्लस् मी इत्यस्ति सो भव इस् अदन्त अङ्ग भव इति is ending with akara bhava adanta anga it has anga samya because when a pratyaya follows then the previous part is called anga so idam adanta angam asti in the place of adanta anga dirghah bhavati yanyadau sarvadhatuke makarah is yan makarah yan pratyahare asti and it is also sarvadhatuka why it is sarvadhatuka we will know later on but it is a sarvadhatuka सो यनादि सार्वधातुक यनादि सार्वधातुक प्रत्ययः अस्ति अतः अदन्तस्य अङ्गस्य दीर्घः किन्तु सम्पूर्णस्य स्थाने दीर्घो न भवति दीर्घ नेवर् रिप्लेसेस् द होल् वर्ड् बट् इट् रिप्लेसेस् द लास्ट् लेटर् आफ् अदन्त अङ्ग अन्तिमस्य वर्णस्य स्थाने वाट् इस् द लास्ट् लेटर् अकार अतः अकारस्य स्थाने एव दीर्घः भवति षष्ट्या निर्दिष्टः यः षष्ट्या निर्दिष्टः यः भव अदन्तस्य अङ्गस्य सो दिस् इस् इन् षष्ठी विभक्ति अङ्गस्य अदन्त अङ्ग इस् इन् षष्ठी विभक्ति तस्य अन्त्यस्य द लास्ट् लेटर् आफ् देट् तस्य अन्त्यस्य स्थाने एव आदेशः भवति सो आदेश रिप्लेसेस् द लास्ट् लेटर् आफ् षष्ठ्यन्त अतः अन्त्यस्य स्थाने एव दीर्घः एवञ्च किं रूपं सिद्ध्यति भवामि इति रूपं सिद्ध्यति भवामि इति रूपम् एवम् अन्त्यस्य स्थाने एव आदेशः भवति अन्यत् उदाहरणम् नः पदस्य छवि रुः इति किञ्चित् सूत्रम् नः पदस्य छवि रुः नः इति विशेषणं पदस्य इति विशेष्य छवि इति सप्तमीभक्ति रुः इति प्रथमा सो नकारान्तस्य नकाररूपस्य च पदस्य छवि परे रुः भवति इति सूत्रार्थः बट् नौ वी हाव् टु एड् दिस् वर्ड् आल्सो इन् द सूत्रार्थ बिकॉज नकारान्तस्य नकाररूपस्य च पदस्य अन्त्यस्य स्थाने रुः भवति छवि परे. सो दिस् इस् द मीनिङ्ग्, एक्चुअलि दिस् इस् द मीनिङ्ग् आफ् दिस् सूत्र. सो प्रीवियस्लि द विच् ऐ शोड् इस् ओन्ली पार्शियल् मीनिङ्ग्. एक्चुअल् मीनिङ्ग् विल् बि नकारान्तस्य नकाररूपस्य च पदस्य अन्त्यस्य स्थाने रुः भवति छवि परे इति सूत्रस्य अर्थः. सो रु रिप्लेसस् द लास्ट् लेटर् आफ् नकारान्तपद वेन् इट् इस् फालोड् बै छौ. सेम् वित् दि आल् दीस् सूत्रान्. इकः अङ्गस्य गुणः सार्वधातुक आर्धधातुकयोः. इकः इस् विशेषण, अङ्गस्य इस् विशेष्य, अतः इगन्तस्य इग् रूपस्य च अङ्गस्य गुणः भवति सार्वधातुक आर्धधातुकयोः परयोः. दिस् ऐ मेन्शन् प्रीवियस्लि, बट् नौ वि हाव् टु एड् वन् मोर् वर्ड्. इगन्तस्य इग् रूपस्य च अङ्गस्य अन्त्यस्य स्थाने गुणः भवति सार्वधातुक आर्धधातुकयोः परयोः. अन्त्यस्य इति योजनीयम् बिकास् आदेश आल्वेस् रिप्लेसेस् द लास्ट् लेटर्. अचः अङ्गस्य वृद्धिः म्यति. द मीनिङ्ग् आफ् दिस् सूत्र इस् अजन्तस्य अज् रूपस्य च अङ्गस्य स्थाने वृद्धिः भवति ङिति परे. नौ वि हाव् टु एड् वन् मोर् वर्ड्. अजन्तस्य अज् रूपस्य च अङ्गस्य अन्त्यस्य स्थाने वृद्धिः भवति ङिति परे. सर्वदापि अन्त्यस्य स्थाने. अजन्तस्य अगेन् अचः अङ्गस्य दीर्घः चौ अर्थः आसीत्. अजन्तस्य अद्रूपस्य च अङ्गस्य स्थाने दीर्घः भवति चौ परे इति. इदानीं कः अर्थः वक्तव्यः? अजन्तस्य अद्रूपस्य च अङ्गस्य अन्त्यस्य स्थाने दीर्घः भवति चौ परे. ऋतः अङ्गस्य दीर्घः चौ. द मीनिङ्ग् आफ् दि सूत्र वास् ऋदन्तस्य अङ्गस्य दीर्घः भवति चौ परे इति. नौ वि हाव् टु इन्सर्ट् वन् मोर् वर्ड्. अत देर्फोर् ऋदन्तस्य ऋद्रूपस्य च अङ्गस्य अन्त्यस्य स्थाने दीर्घः भवति चौ परे. दिस् इस् द मीनिङ्ग्, दिस् इस् द कम्प्लीट् मीनिङ्ग् आफ् दि सूत्र. सो लैक् this we have to understand a sutra. So we started from vibhakti initially. So yada sutra sutra sutre padani drishyante tesham padanam vibhaktihi ka iti chintaniyam iti maya arambhe uktam. So shashtyah kaha arthah, prathamayah kaha arthah, saptamyah kaha arthah iti jnatavyam iti uktam. Tatah param anuvritti vishaye uktam. अनुवृत्तिं ज्ञात्वा सूत्रार्थनिर्णयः कर्तव्यः. वि हाव् टु सी अनुवृत्ति. सो विच् वर्ड् वि हाव् टु टेक् फ्रम् दि प्रीवियस् रूल् देट् वि हाव् टु कन्सिडर्. कन्सिडरिङ्ग् देट् वि हाव् टु एक्स्प्लेन् अ सूत्र इत्युक्तम्. इदानीं किम् उच्यमानम् अस्ति, तावदेव तावता इष्टं न सिद्ध्यति, इस् नाट् इनफ्. बट् वि हाव् टु सी वेदर् देर् इस् ए विशेषण आर् इफ् देर् इस् विशेषण विशेष वर्ड्स्, इफ् देर् आर् विशेषण विशेष वर्ड्स् देन् तदन्तस्य स्थाने कार्यं भवति. तदन्तस्य तस्य च स्थाने कार्यं भवति. एण्ड् ऐ सेड् एन् एक्सेप्शन् टु देट्. सप्तम्यन्तं वर्णबोधकं पदं यदि विशेषणं तर्हि तदादौ कार्यं भवति इत्युक्तम्. नो ऐ एडेड् वन् मोर् थिङ्ग्. आल्वेस् आदेश रिप्लेसस् द लास्ट् लेटर् टु विच् इट् इस् सेड्. अतः सर्वदा अन्त्यस्य स्थाने कार्यं भवति. अतः षष्ट्यन्तस्य अन्त्यस्य स्थाने एव आदेशो भवति इत्युक्तम्. एवं रूपेण यदा किञ्चित् सूत्रं पश्यामः तस्य अर्थः एवं रूपेण निर्णेतव्यः भवति. सो इदं सर्वं जस्ट् वि आर् स्टडिङ्ग् द थियरि. सो द प्राक्टिकल् वेन् वि स्टडि सन्धि एण्ड् सुबन्त तिङन्त वेन् वि स्टडि दोस् then we find the application of this. Now we are still studying the theory. because how to understand sutra. So application of sutra is different and understanding of sutra is different. So now we are just studying how to understand sutra, the samjhas and these things which I am explaining now. These are needed to understand a sutra. Applying is secondary. So after understanding a sutra, then we will think of applying that sutra. So atah etasya avagamana anantaram. So therefore we are studying this in the beginning. Yada sutrasya artham janimaha tada tasya anvayam kartum shaknumaha. Udaharaneshu anvayam kartum shaknumaha. So when we study sandhi, then we will see the application of these rules. Astu. So kopi prashna asti va athava atra samapayamaha. We can stop here. So then in the next class there is an exception again. There is an exception to this. So that I am going to explain in the next class. So there is a question about chau. What is chau? Chau is a pratyaya. Is a tadhita pratyaya. So chvi, saptami vibhakti of chvi is chau. Yeah, is this application only when visheshana is there or whenever shashti is there? Yeah, the uttama prashna is good. So whenever shashti is there, is not about visheshana. So whenever there is a shashti, then the rule is applicable. The rule means antyadesha. The antyadesha rule is applicable whenever there is shashti. Atah shashtyantasya antyasya sthane adesha bhavati. Adesha always replaces the last letter of shashtyanta. So whether there is visheshana or not, if there is shashtyanta, then the adesha replaces the last letter of the shashtyanta. Uttamaha prashna. Yeah, anya prashna is another question. Are all pratyayas varnabodhakas? Yes, all pratyaharas. Are all pratyaharas are varnabodhakas? Yes. So all pratyaharas are varnabodhakas. Sarve pratyaharaha varnabodhakaha eva. Anyepi varnabodhakaha bhavitumarhanti. If, for example, I said ritaha. Ritaha is also varnabodhaka. It's not pratyahara, but it's varnabodhaka. Rit means elkara. And ataha, atta means akara. Actually, it is a short akara, hraswa akara. Rit means short hraswa akara. Why it is so, that I will explain later on. Yeah, there is a question. Shashti sthane yoga is the main sutram. Is it not? Yes. Shashti sthane yoga is the main sutra, but I didn't mention the sutra in the class. But I explained the meaning of the sutra. Tatra shashtyaha tatra sthane ityartha svikartavyaha iti yaduktam. That is because of that sutra. But this antyadesha and sarvadesha are from different, we are getting this meaning from different sutras. For antyadesha, there is a sutra called alontyasya. This is the meaning of alontyasya. So these are connected. Shashti sthane yoga and alontyasya are, these two sutras are actually connected. Astu? Yeah. Astu tarhi. So, atra patam samapayamaha. Mangalam karishyami. Vakyakaram pararuchim bhashyakaram patanjalim paninim sutrakarancha pranatosmi munitrayam.